गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पतान् शृण्वन्नोतिभिः सेधसाधनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यवऊतो दैषभे नमः नमस्ते अस्तु दन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवं बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृडया याते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशे यामिषुम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत शिवेन वचसा त्वा गिरिशाच्चा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुं सुमना असत अद्य वोचददिवक्ता प्रथमो दैव्योऽभिषक् अहेकश्च सर्वाञ्जम्बयन् सर्वाश्चयातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये क्षेमागुम् रुद्रा अवितो दिक्षुश्रुतास्सहस्रशो वैशागुम् हेळयीमहे असौ यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपादृशन्न दृशन्नुदहार्यः उतैनम् विश्वा भूतानि स दृष्टो मृडयाति नः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यः करण्णवः प्रमुञ्चदन्वनस्त्वमुभयोरार्निर्जाम् याश्च ते हस्त इषव पराता भगवो वप अवदत्यतनुस्त्वगुम् सहस्राक्षशतेषु दे निषेर्य शल्यान्नामुखा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्योपाणवागुम् उता अनेशन्नस्येष वाबुरस्य निषङ्गतिः याते हेतिर्मीढुष्टमहस्ते बभूवते धनुः तयास्मान्विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानादताय धृष्णवे उभाव्यामुदते नमो बाहुभ्याम् तव दन्वने परिते धन्वनो हेतिरस्माण्णत्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः నమో హిరణ్యవాహవే సేనాన్యే దిశాన్ చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్యః పశూనాం పతయే నమో నమః సస్మింజరాయ ద్విషీమతే పథీనాం పతయే నమో నమో బబ్లుషాయ వివ్యాదినేన్నానాం పతయే నమో నమో హరికేశాయోపభీతినే పుష్టానాం పతయే నమో నమో భవస్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయాతతావినే క్షేత్రాణాం పతయే నమో నమః సూతాయాహంత్యాయవనానాం పతయే నమో నమో రోహితాయ స్థపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయాక్రందయతే పత్తీనాం పతయే నమో నమ కృత్స్నవీతాయ ధావతే సత్వనాం పతయే నమః నమః సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః కకుభాయ నిషంగినే సేనానాం పతయే నమో నమో నిషంగిన ఇషు ధీమతే తస్కరాణాం పతయే నమో నమో వంచతే పరివంచతే స్థాయూనాం పతయే నమో నమో నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమః శ్రీకావిభ్యో జిగాగుం సద్భ్యోమశ్నతాం పతయే నమో నమో శ్రీమద్భ్యో నక్తం చరద్భ్యః ప్రకృంతానాం పతయే నమో నమ ఉష్ణీషినే గిరిచరాయ కులుంచానాం పతయే నమో నమ ఇషుమద్భ్యో తన్వావిభ్యశ్చ వో నమో నమ ఆతన్వానేభ్యః ప్రతిదధానేభ్యశ్చ వో నమో నమ ఆయచ్చద్భ్యో విసృజద్భ్యశ్చ వో నమో నమోస్యద్భ్యో విద్యద్భ్యశ్చ వో నమో నమ ఆసీనేభ్య శయానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమస్తిష్టద్భ్యో దావద్భ్యశ్చ వో నమో నమ సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః నమావ్యాధినేభ్యో వివిధ్యంతేభ్యశ్చ వో నమో నమ ఉకణాభ్యస్తృగంహతేభ్యశ్చ వో నమో నమో కృత్సేభ్యో కృత్సపతిభ్యశ్చ వో నమో నమో వ్రాతేభ్యో వ్రాతపతిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః శుల్లకేభ్యశ్చ వో నమో నమో రథిభ్యో రథేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమః సేనాభ్యసేనానిభ్యశ్చ వో నమో నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమః సక్షద్భ్యో రథకారేభ్యశ్చ వో నమో నమః కులాలేభ్య కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ వో నమో నమ శ్వభ్యశ్వపతిభ్యశ్చ వో నమః नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीरुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाधिराय च नमः शीघ्रियाय च शेभ्याय च नमः कूर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जगन्याय च बुध्नियाय च नमः सोऽद्भ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेनाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषु धीमते च नमः स्तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुदन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नमः कोप्याय च भट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः स्तीर्त्याय च कूल्याय च नमः भार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शष्प्याय च पेन्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयनाय च नमः कवर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हृद्याय च नमो लोप्याय च लप्याय च नमः ऊर्ध्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमानाय चाभिघ्नते च नमः आखिलते च प्रखिलते च नमो वक्किरिकेभ्यो देवानागुमृदयेभ्यो नमो वीक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मा रोमो एषाम् किञ्चनाममत या ते रुद्रशिवा तनु शिवा विश्वाः भेषजी शिवा रुद्रस्य भेषजीतया नो मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने शयद्वेराय प्रभरामहे मतिम् यता नश्यमतद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोत नो मयस्कृति शयद्वेराय नमसा विधेमते यच्चञ्चयोश्च मनुरायजे पिता तदश्यामतव रुद्र प्रणीतौ मानो महान्तमुदमानो अर्भकम् मान उक्षन्तमुदमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन हे मान आयुषि मानो कोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रवामितो वदेर्हविष्मन्तो नमसा विधेमते आरात्ते गोग्न उत पूरुषग्ने क्षयद्वीराय सुम्नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूयदा च न शर्म यच्च द्विबर्हा स्तुहिश्रुतम् गर्त स दैयुवानम् मृगन्न भीम उपहत्नुमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरगायोः अवस्थिरामगवद्यस्तनुष्वमीड्वस्तोकायतनयाय मृडया मीडुष्टमशिवतमशिवोन सुमना भव परमे वृक्ष आयुधन्निधाय कृत्तिम्बसा न आचर पिनाकम् बिभ्रदा गहि विगिरिदविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निवपन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः सामीशानो भगवः पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयो जने वदन्वानि तन्मसि अस्मिन्महत्यर्णवेऽन्तरिक्षे भवादि नीलग्रीवाशितिकण्ठा शैवा अधः क्षमाचराः नीलग्रीवाश्रितिकण्ठादिवगुम् रुद्र उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवाविलोहिताः ये भूतानामधिपतयो विशिकाश कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनाना ये पताम्बतिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति शुकावन्तो निषङ्गिनः य एतावन्तश्च भूयापुंसश्च दिशो रुद्रावितस्तिरे तेषाकुम् सहस्रयो जने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि ये शामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचीर्दशोदीचीर्दशोर्द्वास्तेभ्यो नमस्ते नो मृडयन्तु तेय द्विष्मो यश्च नो द्वेषितम् भोजम् वेददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनात् भृत्योर्मुक्षीयमामृतात् यो रुद्र अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु येते सहस्रमयुतम् पाशा मृत्योमर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु ह्यस्विषुः सुदन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभे शजोयगुम् शिवा विमर्शनः ओ शान्ति शान्ति शान्तिः ॐ शं च मे मयश्च मे प्रियं च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भवश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसूश्च मे सीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ॐ शान्ति शान्ति शान्तिः
शन्नो मित्रः शं वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतम् वदिष्यामि सत्यम् वदिष्यामि तन्मामवतु तद्भक्तारमवतु अवतु माम् अवतु भक्तारम् ॐ शान्ति शान्ति शान्तिः शिक्षां व्याख्यास्यामः वर्णस्वरः मात्राबलम् सामसन्तानः इत्युक्तः शिक्षाध्यायः सह नौ यशः सह नौ ब्रह्मवर्चसम् अथातः सगुंहिताय उपनिषदम् व्याख्यास्यामः प पञ्चस्वधिकरणेषु अधिलोकमधिज्योतिषमधिविद्यमधिप्रजमध्यात्मम् तामहासगुम्भिता इत्याचक्षते अथाधिलोकम् पृथिवीपूर्वरूपम् द्यौरुत्तररूपम् आकाशः सन्धिः वायुः सन्धानम् इत्यधिलोकम् अथाधिज्योतिषम् अग्निः पूर्वरूपम् आदित्य उत्तररूपम् आपः सन्धिः वैद्युतः सन्धानम् इत्यधिज्योतिषम् अथाधिविद्यम् आचार्यः पूर्वरूपम् अन्तेवास्युत्तररूपम् विद्यासन्धिः प्रवचनगुम् सन्धानम् इत्यधिविद्यम् अथाधिप्रजम् माता पूर्वरूपम् पितोत्तररूपम् प्रजासन्धिः प्रजननगुम् सन्धानम् इत्यधिप्रजम् अथाध्यात्मम् अधराहनुः पूर्वरूपम् उत्तराहनुरुत्तररूपम् वाक्सन्धिः जिह्वासन्धानम् इत्यध्यात्मम् इति मामहासगुम्हिताः य एवमेता महासगुम्हिता व्याख्याता वेदा सन्धीयते प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन यश्छन्दसा मृषभो विश्वरूपः छन्दोऽभ्योऽध्यमृतात्सम्बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरि विश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाया आवहन्ति वितन्वाना कुर्वाणा चिरमात्मनः वासागुंसि मभगावश्च अन्नपारे च सर्वदा ततो मे श्रियमावह लोभशाम् पशुभिः सह स्वाहा आमायन्तु ब्रह्मचारिणः स्वाहा विमायन्तु ब्रह्मचारिणः स्वाहा प्रमायन्तु ब्रह्मचारिणः स्वाहा दमायन्तु ब्रह्मचारिणः स्वाहा श्रमायन्तु ब्रह्मचारिणः स्वाहा यशोजने सारि स्वाहा श्रेयान्वस्य सोऽसारि स्वाहा तम् त्वा भगप्रविशानि स्वाहा समाभगप्रविश स्वाहा तस्मिन् सहस्रशाखे निभगाहम् त्वयि मृजे स्वाहा यथा पप्रवतायन्ते यथा मासा अहर्जनम् एवम् माम् ब्रह्मचारिणः धातरायन्तु सर्वतः स्वाहा प्रतिवेशोऽसि प्रमाभाहि प्रमापद्यस्वा भूर्भुवः सुभरिति वा एतास्तिस्रोऽभ्याहृतयः तासामुहस्मैतान् चतुर्थीम् माहाचमस्य प्रवेदयते मह इति तद्ब्रह्मा स आत्मा अङ्गान्यन्या देवताः भूरिति वा अयम् लोकः भुव इत्यन्तरिक्षम् सुभरित्यसौ लोकः मह इत्यादित्यः आदित्येन वाप सर्वे लोका महीयन्ते भूरिति वा अग्निः भुव इति वायुः सुभरित्यादित्यः मह इति चन्द्रमाः चन्द्रमसा वाप सर्वाणि ज्योतिगुंषि महीयन्ते भूरिति वा ऋचः भुव इति सामानि सुभरिति यजोगुंषि मह इति ब्रह्मा ब्रह्मणा वाप सर्वे वेदा महीयन्ते भूरिति वै प्राणः भुव इत्यपानः सुभरिति व्यानः मह इत्यन्नम् अन्नेन वाप सर्वे प्राणा महीयन्ते तावा एताश्चतस्रश्चतुर्धा चतस्रश्चतस्रो व्याहृतयः तायो वेदा स वेद ब्रह्मा सर्वेऽस्मै देवा बलिमावहन्ति स य एषोऽन्तर्हृदय आकाशः तस्मिन्नयम् पुरुषो मनोमयः अमृतो हिरण्मयः अन्तरेण तालुके य एष स्तनैवावलम्बते सेन्द्रयोनिः यत्रासौ केशान्तो विवर्तते व्यपोह्यशीर्षकपाले भूरित्यग्नौ प्रतिष्ठते भुव इति वायौ सुभरित्यादित्ये मह इति ब्रह्मणि आप्नोति स्वाराज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्ततो भवति आकाशशरीरम् ब्रह्मा सत्यात्मप्राणारामम् मन आनन्दम् शान्तिसमृद्धममृतम् इति प्राचीनयोग्योपास्व पृथिव्यन्तरिक्षन्द्यौर्दिशो वान्तरदिशाः अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि आप ओषधयो वनस्पतय आकाश आत्मा इत्यधिभूतम् अथाध्यात्मम् प्राणो व्यानोपान उदानः समानः चक्षुश्रोत्रम् मनोवाक्त्वक् चर्ममागुंसग्स्नावास्थिमज्ज एतदधिविधाय ऋषिरवोचत् पान्तम् वा इदगुम् सर्वम् पान्तेनैव पान्तग्स्पृणोतेति ओमिति ब्रह्मा ओमितीदगुम् सर्वम् ओमित्येतदनुकृतिः स्म वा अप्योश्रावयेत्याश्रावयन्ति ओमिति सामानि गायन्ति ओगुंशोमिति शस्त्राणि शगुंसन्ति ओमित्यध्वर्युः प्रतिकरम् प्रतिगृणाति ओमिति ब्रह्मा प्रसौति ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नभानीति ब्रह्मैवोपाप्नोति ऋतम् च स्वाध्याय प्रवचने च सत्यम् च स्वाध्याय प्रवचने च तपश्च स्वाध्याय प्रवचने च दमश्च स्वाध्याय प्रवचने च शमश्च स्वाध्याय प्रवचने च अग्नयश्च स्वाध्याय प्रवचने च अग्निहोत्रम् च स्वाध्याय प्रवचने च अतिथयश्च स्वाध्याय प्रवचने च मानुषं च स्वाध्याय प्रवचने च प्रजा च स्वाध्याय प्रवचने च प्रजनश्च स्वाध्याय प्रवचने च प्रजातिश्च स्वाध्याय प्रवचने च सत्यमिति सत्यवचारातीतरः तप इति तपो नित्यः पौरुषिष्टिः स्वाध्याय प्रवचने एवेति नाको मौद्गल्यः तद्धि तपस्तद्धि तपः अहम् वृक्षस्य रेरिव कीर्तिपृष्ठम् गिरेरिव ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि द्रविणपुंसवर्चसम् सुमेधा अमृतोक्षितः इति त्रिशङ्कोर्वेदानुवचनम् वेदमनोच्चाचार्यो अन्ते वासिन मनुषास्ति सत्यम् वदा धर्मम् चर स्वाध्यायान्मा प्रमदः आचार्याय प्रियम् धनमाहृत्य प्रजातन्तुम् मा व्यवच्छेत्सेः सत्यान्न प्रमदितव्यम् धर्मान्न प्रमदितव्यम् कुशलान्न प्रमदितव्यम् भूत्यैन प्रमदितव्यम् स्वाध्याय प्रवचनाभ्यान्न प्रमदितव्यम् देवपितृकार्याभ्यान्न प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि नो इतराणि एके चास्मच्छ्रेयागुंसो ब्राह्मणाः तेषाम् त्वयासनेन प्रश्वसितव्यम् श्रद्धया देयम् अश्रद्धया देयम् श्रिया देयम् ह्रिया देयम् भिया देयम् संविदा देयम् अथ यदि ते कर्म विचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ये तत्र ब्राह्मणाः संहर्षिणः युक्ताः युक्ताः अलोक्षा धर्मकामा स्युः यथा ते तत्र वर्तेरन्न तथा तत्र वर्तेथाः अथाभ्याख्यातेषु ये तत्र ब्राह्मणाः संहर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामा स्युः यथा ते तेषु वर्तेरन्न तथा तेषु वर्तेथाः एष आदेशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् शन्नो मित्रः शं वरुणः शन्नो भवत्वर्यवा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वामेव प्रत्यक्षम् ब्रह्मावादिशम् ऋतमवादिशम् सत्यमवादिशम् तन्मामावेत् तद्वक्तारमावेत् आवीन्मा आवीद्वक्तारम् ॐ शान्ति शान्ति शान्तिः ॐ ब्रह्मात्मने
ಸಂವದ ಸೃಜತ ತದ ಕಾಮಯತ ಸಮಾತ್ಮನ ಪದ್ಯೇಯೇತಿ ಆತ್ಮನ್ನಾತ್ಮನ್ನಿತ್ಯಾಮಂತ್ರಯತ ತಸ್ಮೈ ದಶಮಗುಂ ಭೂತ ಪ್ರತ್ಯಶೃಣೋತ್ ಸ ದಶಹೂತೋ ಭವತ್ ದಶಹೂತೋ ಹವೈ ನಾಮೈಷಃ ತಂ ವಾ ಏತಂ ದಶಹೂತಗುಂ ಸಂತಂ ದಶಹೂತೇತ್ಯಾಶಕ್ಷತೆ ಪರೋಕ್ಷೇಣ ಪರೋಕ್ಷ ಪ್ರಿಯಾ ಹಿವ ಹಿ ದೇವಾ ಆತ್ಮನ್ನಾತ್ಮನ್ನಿತ್ಯಾಮಂತ್ರಯತ ತಸ್ಮೈ ಸಪ್ತಮಗುಂ ಭೂತ ಪ್ರತ್ಯಶೃಣೋತ್ ಸ ಸಪ್ತಹೂತೋ ಭವತ್ ಸಪ್ತಹೂತೋ ಹವೈ ನಾಮೈಷಃ ತಂ ವಾ ಏತಂ ಸಪ್ತಹೂತಗುಂ ಸಂತಂ ಸಪ್ತಹೂತೇತ್ಯಾಶಕ್ಷತೆ ಪರೋಕ್ಷೇಣ ಪರೋಕ್ಷ ಪ್ರಿಯಾ ಹಿವ ಹಿ ದೇವಾ ಆತ್ಮನ್ನಾತ್ಮನ್ನಿತ್ಯಾಮಂತ್ರಯತ ತಸ್ಮೈ ಷಷ್ಟಮಂ ಭೂತ ಪ್ರತ್ಯಶೃಣೋತ್ ಸ ಷಡ್ಭೂತೋ ಭವತ್ ಷಡ್ಭೂತೋ ಹವೈ ನಾಮೈಷಃ ತಂ ವಾ ಏತಂ ಷಡ್ಭೂತಗುಂ ಸಂತಂ ಷಡ್ಭೂತೇತ್ಯಾಶಕ್ಷತೆ ಪರೋಕ್ಷೇಣ ಪರೋಕ್ಷ ಪ್ರಿಯಾ ಹಿವ ಹಿ ದೇವಾ ಆತ್ಮನ್ನಾತ್ಮನ್ನಿತ್ಯಾಮಂತ್ರಯತ ತಸ್ಮೈ ಪಂಚಮಗುಂ ಭೂತ ಪ್ರತ್ಯಶೃಣೋತ್ ಸ ಪಂಚಭೂತೋ ಭವತ್ ಪಂಚಭೂತೋ ಹವೈ ರಾಮೈಷಃ ತಂ ವಾ ಏತಂ ಪಂಚಭೂತಗುಂ ಸಂತಂ ಪಂಚಭೂತೇತ್ಯಾಚಕ್ಷತೆ ಪರೋಕ್ಷೇಣ ಪರೋಕ್ಷ ಪ್ರಿಯಾ ಹಿವ ಹಿ ದೇವಾ ಆತ್ಮನ್ನಾತ್ಮನ್ನಿತ್ಯಾಮಂತ್ರಯತ ತಸ್ಮೈ ಚತುರ್ಥಗುಂ ಭೂತ ಪ್ರತ್ಯಶೃಣೋತ್ ಸ ಚತುರ್ಭೂತೋ ಭವತ್ ಚತುರ್ಭೂತೋ ಹವೈ ನಾಮೈಷಃ ತಂ ವಾ ಏತಂ ಚತುರ್ಭೂತಗುಂ ಸಂತಂ ಚತುರ್ಭೂತೇತ್ಯಾಚಕ್ಷತೆ ಪರೋಕ್ಷೇಣ ಪರೋಕ್ಷ ಪ್ರಿಯಾ ಹಿವ ಹಿ ದೇವಾ ತಮಬ್ರವೀತ್ ತ್ವಂ ವೈ ಮೇ ನೇಷ್ಟಗುಂ ಭೂತ ಪ್ರತ್ಯಶ್ರೌಷೇ ತ್ವಯೈ ನಾನಾಖ್ಯಾತಾರ ಇತಿ ತಸ್ಮಾನ್ನುಹೈ ನಾಗುಂ ಚತುರ್ಭೂತಾರ ಇತ್ಯಾಚಕ್ಷತೆ ತಸ್ಮಾತ್ ಶುಶ್ರೂಷ ಪುತ್ರಾನಾಗುಂ ಹೃದ್ಯತಮಃ ನೇಡಿಷ್ಟೋ ಹೃದ್ಯತಮಃ ನೇಡಿಷ್ಟೋ ಬ್ರಹ್ಮನೋ ಭವತಿ ಯ ಏವಂ ವೇದ ಆತ್ಮನೇ ನಮಃ
ಜಾತವೇದಸೇ ಸುನವಾಮಸೋ ಮಮರಾತಿ ಯತೋ ನಿತಹಾತಿ ವೇದಃ ಸ್ವನ ಪರಿಷದತಿ ದುರ್ಗಾನಿ ವಿಶ್ವಾಸಿಂಧುಂ ದುರಿತಾತ್ಯಗ್ನಿಃ ತ್ವಾಮಗ್ನಿವರ್ಣಾಂ ತಪಸಾ ಜ್ವಲಂತೀಂ ವೈರೋಚನೀಂ ಕರ್ಮ ಫಲೇಷು ಜುಷ್ಟಾ ದುರ್ಗಾ ದೇವೇ ಗುಂ ಶರಣಮಹಂ ಪ್ರಪದ್ಯೇ ಸುತರಸಿ ತರಸೇ ನಮಃ ಅಗ್ನೇ ತ್ವಂ ಪಾರಯಾಣವ್ಯೋ ಅಸ್ಮಾನ್ ಸ್ವಸ್ತಿ ಭಿರತಿ ದುರ್ಗಾನಿ ವಿಶ್ವಾ ಪೂಶ್ಚ ಪೃಥ್ವೀ ಬಹುಲಾನ ಉರ್ವೀ ಭವಾಧೋಕಾಯತನಯಾಯ ಶಂಯೋ ವಿಶ್ವಾನಿನೋ ದುರ್ಗಃ ಜಾತವೇದಸ್ಸಿಂಧುನ್ನನಾವಾ ದುರಿತಾತಿ ಪರ್ಷಿ ಅಗ್ನೇ ಅತ್ರಿವರ್ಮನಸಾ ಗೃಢಾನೋ ಸ್ಮಾಕಂ ಬೋಧ್ಯಭಿತಾ ತನೂನಾ ಹೃದನಾಜಿತಗುಂ ಸಹಮಾನ ಮುಗ್ರಮಗ್ನಿಗುಂ ಹುವೇಮ ಪರಮಾತ್ ಸದಸ್ತಾತ ಸನ ಪರಿಷದತಿ ದುರ್ಗಾನಿ ವಿಶ್ವಾಕ್ಷಾಮದ್ದೇವೋ ಅತಿದುರಿತಾದ್ಯಗ್ನಿಃ ಪ್ರತ್ನೋಷಿ ಕಮೇಡ್ಯೋ ಅಧ್ವರೇಷು ಸನಾಚ್ಛಹೋದಾರವ್ಯಶ್ಚ ಸತ್ಸೀ స్వాంచాగ్నేతనువం పిప్రయ స్వాస్మభ్యం చ సౌమగవాయజస్వ గోభిర్జుష్టమయుజో నిషిక్తం తవేంద్ర విష్ణోరణు సంచరేమ నాగస్య పృష్టమవి సంవసానో వైష్ణవీం లోక ఇహ మాదయంతాం కాత్యాయనాయ విద్మహే కన్యకుమారి ధీమహి తన్నో దుర్గే ప్రచోదయాత్ స్వస్తి ప్రజాభ్య పరిపాలయంతాం న్యాయేన మార్గేన మహీమహేషాః గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు ఓం శాంతి శాంతి శాంతి.